इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिझा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् नवदिल्ल्यां सञ्जातायाः भयावह घटनायाः षड्यन्त्रकर्तारः नैव क्षमिष्यन्ते। भूटानस्य थिम्पू नगरे एकं कार्यक्रमं सम्बोधयन् श्रीमोदी अवोचत् यत् सः सञ्जातायाः घटनायाः अनुसन्धाने संलग्न अभिकरणैः सह सम्पर्के अस्ति। सः आश्वासितवान् यत् अन्वेषणबलानि अस्य षड्यन्त्रस्य अवश्यमेव मूलाधारं निग्रहीष्यन्ति।
कल शाम दिल्ली में हुई भयावह घटना ने सभी के मन को व्यथित कर दिया है। मैं पीड़ित परिवारों का दुख समझता हूँ। आज पूरा देश उनके साथ खड़ा है। मैं कल रात भर इस घटना की जांच में जुटी सभी एजेंसियों के साथ, सभी महत्वपूर्ण लोगों के साथ संपर्क में था। विचार विमर्श चलता था, जानकारियों के तार जोड़े जा रहे थे। हमारी एजेंसियां इस षड्यंत्र की तह तक जाएगी। इसके पीछे के षड्यंत्रकारियों को बख्शा नहीं जाएगा।
प्रधानमंत्री प्रावोचत् यत् अद्यतन दिवसः भूटानाय हिमालयीय राष्ट्रस्य राजपरिवाराय तथा विश्वशान्तौ विश्वासं कुर्वद्भ्यः सर्वेभ्यः जनेभ्यः अतिमहत्वपूर्णः वर्तते। तेनोदीरितं यत् शताधिभ्यः भारत भूटानयोः मध्ये सम्बन्धाः अतीव गभीराः सौहार्दपूर्णाः तथा सांस्कृतिकाः च आसन्। अतः एतस्मिन् महत्वपूर्णावसरे भागग्रहणं भारतस्य कृते तस्य कृते चापि एका प्रतिबद्धता आसीत्। केन्द्रीय गृहमन्त्री अमितशाहः ह्यः नवदिल्ल्यां स्वकीयावासे उच्चस्तरीय सुरक्षा समीक्षोपवेशनस्य आध्यक्षम् अकरोत्। उपवेशनेऽस्मिन् तावत् दिल्लीस्थस्य लालकिलायाः समीपे वाहनविस्फोटेन समुद्भूतायाः स्थितेः आकलनं सञ्जातम्। एतस्मिन् प्रकरणे 13 जनाः मृत्युमुपगताः, सहैव अन्ये केचन व्रणिताः अभवन्। जम्मूकश्मीरस्य आरक्षकमहानिदेशकः अस्मिन् उपवेशने प्रातिभासिकमाध्यमेन सम्मिलितः। गृहमन्त्रालयेन घटनायाः अनुसन्धानं राष्ट्रिय अनुसन्धानाभिकरणाय प्रदत्तम्। विस्फोटस्य कारणानि तथा परिस्थितिम् अवज्ञातुं जनतायाः सुरक्षां सुनिश्चेतुं च अधिकारिणः कठोर पर्यवेक्षणं कुर्वन्तः सन्ति। दिल्ली आरक्षकेन अवैध गतिविधि निवारण अधिनियमान्तर्गतं विस्फोटक अधिनियमान्तर्गतं सहैव भारतीय न्याय संहितायाः विभिन्न अनुच्छेदान्तर्गतं च प्रकरणमिदं पञ्जीकृतम्। दिल्ली मेट्रो रेल कॉर्पोरेशन इत्यनेन प्रोक्तं यत् सुरक्षा कारणात् लालकिला मेट्रो स्थानकं पिहितं भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य गैबरॉन नगरे बोट्स्वाना देशस्य राष्ट्रपतिना डूमा बोको इत्यनेन सह द्विपाक्षिकं वार्तालापं करिष्यति। व्यापार निवेशः प्रौद्योगिकी ऊर्जा कृषिः स्वास्थ्यम् औषधनिर्माणं रक्षणम् इत्यादिषु क्षेत्रेषु द्विपाक्षिकसहयोगं वर्धयितुं नूतनान् मार्गान् अन्वेष्टुं चर्चां तौ करिष्यतः। राष्ट्रपतिः द्रौपदी मुर्मुः स्वयात्रावधौ भारतीय समुदायस्य सदस्यैः सह संवादं करिष्यति। बोट्स्वाना देशस्य ऐतिहासिक महत्वपूर्ण स्थलानि च द्रक्ष्यति। बिहार राज्ये विधानसभा निर्वाचनस्य द्वितीयान्तिम चरणाय 69% मतदानम् अभवत्। अस्मिन् चरणे 20 जनपदेषु 22.1% आसनेषु मतदानम् अभवत्। सर्वाधिकं प्रतिशतं मतदानं कटिहार जनपदे अभवत्। भारतीय ऋतु विज्ञान विभागेन श्वः तमिलनाडु पुद्दुचेरी करैकल प्रदेशेषु पृथक् स्थानेषु प्रचण्ड वृष्टिः भविष्यति इति पूर्वानुमानं प्रकटितम्। अस्मिन्नेव चरणे दिल्ली NCR इत्यत्र वायुगुणवत्ता गभीरश्रेण्याम् एव वर्तते इति वार्ताः।